इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। निर्वाचनायोगेन अद्य तमिलनाडु पश्चिम बंगाल विधानसभा निर्वाचनयोः प्रथमचरणस्य च सूचना प्रसारिता। प्रधानमन्त्री नरेन्द्र मोदी असम राज्यस्य दल कार्यकर्तृभिः सह वार्तालापम् अकरोत्। वित्तमन्त्री निर्मला सीतारामन वर्या अकथयत् यत् भारतीय मुद्रायाः मूल्यं मार्केट् इत्याधारितं भवति, अपि च वैश्विका निश्चिततानाम् अनन्तरमपि भारतस्य सूक्ष्मार्थव्यवस्थानीतयः सुदृढतया तिष्ठन्ति। लोकसभया अद्य इन्सॉल्वेंसी एण्ड बैंकरप्सी कोड अमेंडमेंट बिल इत्येतद् विधेयकं वॉयस वोट इत्यनया विधिना पारितम्। बिहारस्य मुख्यमंत्री नीतीशकुमारः सद्यः एव राज्यसभायां निर्वाचनानन्तरं राज्य विधान परिषदः सदस्यतायाः त्यागपत्रं प्रदत्तवान्। श्रीलंकादेशस्य राष्ट्रपतिः अनुरा कुमार दिसानायके इत्येषः पश्चिम एशिया संकट कालस्य मध्ये देशे ईंधन प्रेषणं समर्थनाय भारतं प्रति कृतज्ञतां प्रकटितवान्। अपि च भारतस्य शीतल देवी इत्येषा 25,000+ पैरा आर्चर ऑफ द ईयर इत्यस्य कृते नामांकिता। अथ वार्ताः विस्तरेण। भारतस्य निर्वाचनायोगेन अद्य तमिलनाडु राज्यस्य विधानसभा निर्वाचनस्य पश्चिम बंगाल राज्यस्य विधानसभा निर्वाचनस्य च प्रथम चरणस्य सूचना प्रसारिता। अधिसूचनायाः निर्गमनेन राज्येषु नामांकन पत्राणां प्रस्तुतिः समारब्धास्ति। तमिलनाडु राज्यस्य सर्वेषु चतुस्त्रिंशोत्तर 200 विधानसभासनेषु एकचरणीय मतदानं भविष्यति। पश्चिमबंगस्य 25,000+ कृते च प्रथमचरणस्य मतदानम् अग्रिममासस्य 23 दिनांके भविष्यति। नामांकनपत्रस्य प्रस्तुतीकरणस्य अन्तिमतिथिः अग्रिममासस्य 6 अस्ति। अग्रिमे दिने नामांकनपत्राणां परीक्षणं भविष्यति। प्रत्याशीपदस्य निराकरणस्य अन्तिमतिथिः अग्रिमे मासस्य 9 अस्ति। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी अद्य अपराह्णे मेरा बूथ सबसे मजबूत इति संवाद कार्यक्रमस्यान्तर्गतम् असमराज्यस्य दल कार्यकर्तृभिः सह वार्तालापम् अकरोत्। दलकार्यकर्तॄन् सम्बोधयन् श्रीमोदी अवदत् यत् असमराज्ये मनस्थितिः स्पष्टा अस्ति। राज्यस्य जनाः एनडीए दलाय मतदानं कर्तुं सज्जाः सन्ति।
असम में बीजेपी एनडीए की हैट्रिक लगे, इसके लिए आप सभी जबरदस्त मेहनत कर रहे हैं। दूसरी तरफ ये बोहाग बिहू और अन्य उत्सवों का भी समय है, इनसे जुड़ी तैयारियां भी रहती है। मैं जानता हूँ असम में बीजेपी एनडीए को लेकर बहुत अधिक समर्थन है, लेकिन आप लोग जमीन पर जो अनुभव कर रहे हैं, जो आपके विचार हैं, मैं उन्हें जानने के लिए बहुत उत्सुक हूँ।
संवादावधौ श्रीमोदी दल कार्यकर्तृभ्यः दलस्य स्पष्ट विजयाय अहर्निशं कार्यं कर्तुं प्रार्थयत्। असमराज्ये अप्रैलमासस्य 9 एकस्मिन् चरणे मतदानं भविष्यति। वित्तमन्त्री निर्मला सीतारामनवर्या अद्य संसदि भारतीयार्थव्यवस्थायाः सुदृढीकरणस्य पक्षं सबलं प्रतिपादयन्ती अकथयत् यत् भारतीयमुद्रायाः मूल्यं मार्केट् इत्याधारितं भवति, अपि च वैश्विका निश्चिततानाम् अनन्तरम् अपि भारतस्य सूक्ष्मार्थव्यवस्थानीतयः सुदृढतया तिष्ठन्ति। भारतीयमुद्रायाः मूल्यापचितिविषये लोकसभायां प्रवर्तमाने प्रश्नकाले प्रत्युत्तरं प्रयच्छन्ती वित्तमन्त्री वर्या अकथयत् यत् भारतीयार्थव्यवस्थायाः नीतयः सुदृढाः सन्ति, सहैव वैश्विका निश्चिततायाः कारणेन आविश्वं मुद्रामूल्येषु अरोहावरोहौ दृश्यते। लोकसभया अद्य इन्सॉल्वेंसी एण्ड बैंकरप्सी कोड अमेंडमेंट बिल इत्येतद् विधेयकं वॉयस वोट इत्यनया विधिना पारितमस्ति। लोकसभायां इन्सॉल्वेंसी एण्ड बैंकरप्सी कोड अमेंडमेंट बिल इत्यस्मिन् विधेयके चर्चायाः प्रत्युत्तरं प्रयच्छन्ति वित्तमन्त्री निर्मला सीतारामनवर्या प्रोक्तवती यत् इन्सॉल्वेंसी एण्ड बैंकरप्सी कोड इति विधेयकस्य उद्देश्यं केवलं ऋणाहरणस्य कार्यं न आसीत्, अपितु अस्योद्देश्यं तु व्यापार संरक्षणं, वित्तस्य अनियमिततायाः दूरीकरणं, औद्योगिक मूल्यानां स्थापनं च आसीत्।
भारत की इकोनॉमी एकदम स्ट्रांग है, हमारे फिस्कल सिचुएशन कंस्टिट्यूशन स्ट्रांग है और फिस्कल डेफिसिट 5 साल में कैसे मेंटेन करते आ रहे हैं, इसके ऊपर पूरे दुनिया में प्रशंसा हो रही है। हमारे फॉरेन एक्सचेंज रिजर्व इतना साफ बरकरार है, सॉलिड भी है, इसके कारण आज हम डॉलर का व्यवस्था को पूरे दुनिया देख रही है। हर एक इमर्जिंग मार्केट का इकोनॉमी के साथ भारत को तुलने में हमारे रुपया ठीक चल रही है।
विधेयकस्य विषये सा अकथयत् यत् इन्सॉल्वेंसी एंड बैंक करप्सी कोड इत्यनेन देशस्य बैंक क्षेत्रे सुव्यवस्था सुदृढ़ा जाता अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषी यतन्त्रांशे अपि उपलब्धो भविष्यति। बिहारस्य मुख्यमंत्री तथा जनता दल यूनाइटेड इत्यस्य अध्यक्षः नीतीश कुमारः सद्यः एव राज्यसभायां निर्वाचनानन्तरं संविधानस्य नियमानाम् अनुपालनं कुर्वन् राज्य विधान परिषदः सदस्यतायाः त्यागपत्रं प्रदत्तवान्। जेडीयू दलस्य एमएलसी संजय गांधी इत्ययं नीतीश कुमारस्य त्यागपत्रं विधान परिषदः अध्यक्षाय अवधेश नारायण सिंहाय समर्पितवान्। पटनानगरे प्रसारमाध्यमैः सह वार्तालापं कुर्वन् वरिष्ठमन्त्री विजय कुमार चौधरी इत्ययम् अवदत् यत् एतत् संवैधानिक प्रक्रियायाः भागमासीत्। मुख्यमन्त्रिणः त्यागपत्रस्य विषये आधिकारिक घोषणा शीघ्रमेव अपेक्षिता अस्ति। अस्मिन् मासे 16 दिनांके जेडीयू प्रमुखः संसदः उच्चसदनस्य कृते निर्विरोधः निर्वाचितः। अत्रान्तरे भाजपादलस्य राष्ट्रिय अध्यक्षः नितिन नवीनः अस्य मासस्य आरम्भे राज्यसभायाः कृते निर्वाचितः भूत्वा संविधानस्य उपबन्धानुसारम् अद्य बिहार विधानसभायाः सदस्यतायाः त्यागपत्रं प्रदत्तवान्। श्रीलंकादेशस्य राष्ट्रपतिः अनुरा कुमार दिसानायके इत्येषः पश्चिम एशिया संकटकालस्य मध्ये देशे ईंधन प्रेषणं समर्थनाय भारतं प्रति कृतज्ञतां प्रकटितवान्। सामाजिकान्तर्जालीये सन्देशे राष्ट्रपतिः दिशानायके वर्यः अवदत् यत् सः सद्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वर्तमानस्य द्वन्द्वस्य कारणात् श्रीलंकादेशस्य ईन्धनाभावस्य विषये वार्तालापम् अकरोत्। सः अवदत् यत् शनिवासरे कोलम्बो नगरे 20,000 मैट्रिक टन परिमितं डीजलेति ईन्धनम्, 18,000 मैट्रिक टन परिमितं पेट्रोलेति ईन्धनम् इत्येतैः सह 38,000 मैट्रिक टन परिमितं पेट्रोलियम इत्यस्य प्रेषणस्य अनन्तरं भारतस्य द्रुत समर्थनस्य कृते सः कृतज्ञः अस्ति। लोकसभायां वामपक्षस्य उग्रवादात् देशं मुक्तं कर्तुं प्रयत्नानां विषये चर्चा आरब्धा। वादविवादस्य आरम्भं कुर्वन् शिवसेना सदस्यः श्रीकान्त सिन्देवर्यः नरेन्द्रमोदी सर्वकारस्य अर्धसैनिकबलानां आरक्षिबलानां च देशं नक्सलमुक्तं कर्तुं कृतप्रयासानां प्रशंसामकरोत्। वामपन्थोग्रवादेन सह युद्धं कुर्वन्तः ये सर्वे अपि प्राणत्यागं कृतवन्तः तेभ्यः सर्वेभ्यः सुरक्षाकर्मचारिभ्यः अपि सः श्रद्धाञ्जलिम् अददात्। राज्यसभायाः सभापतिः तथा केन्द्रीय मन्त्री जेपी नड्डा तुष्टीकरण राजनीतिं कर्तुं मुस्लिम समुदायं वोट बैंक इति रूपेण द्रष्टुं च इंडी ग्रन्थि बन्धनं कांग्रेस दलं च प्रति विरोधं प्रकटितवान्। राज्यसभायां चर्चां कुर्वन् श्रीनड्डा अवदत् यत् विपक्षिदलानां वादविवादे रुचिः न अस्ति, नैव लोकतान्त्रिक मूल्येषु संविधाने च तेषां मनसि सम्मानः अस्ति। अद्य शून्यकालस्य एकस्य घटनायाः उल्लेखं कुर्वन् श्रीनड्डा अवदत् यत् यदा भाजपा सदस्यः के लक्ष्मणः स्वस्य निर्धारित समये भाषणं कुर्वन् आसीत् तदा इण्डीदलस्य सदस्याः निरन्तरं तं व्याकुलं कुर्वन्ति स्म। आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले गुवाहाटी नगरस्य वरसापारा क्रिकेट क्रीडांगणे राजस्थान रॉयल्स दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरिष्यति। भारतीय समयानुसारं सायं 7:30 क्रीडायाः आरम्भः भविष्यति। भारतस्य शीतल देवी इत्येषा 25,000+ पैरा आर्चर ऑफ द ईयर इत्यस्य कृते नामांकिता इति वार्ताः।